Nathan não tem outro trabalho, né? Ah, tá. É que lá, né? तत्सम्बन्धी एकं वाक्यमासीत् तदपि पठितम् इदानीम् अग्रे वदति यदप्युक्तम् प्रसिद्धप्रस्थानादिक्रमिणः मार्गस्य काव्यत्वहाने ध्वनिः नास्ति इति तदपि अयुक्तम्। पूर्वं ध्वनि अभाववादस्य प्रतिष्ठापनसमये ध्वनिः नास्ति इति ध्वनि अभाववादम् उक्तवन्तः किल तस्मिन् काले प्रसिद्धप्रस्थानादिक्रमिणः मार्गस्य काव्यत्वहानेः ध्वनिः नास्ति। ध्वनिः इति किञ्चिदस्ति इति भवन्तः चेति वदन्ति, तर्हि प्रसिद्धप्रस्थानादिक्रमिणः मार्गस्य प्रसिद्धः अथवा प्रसिद्धं प्रस्थानं प्रस्थानं नाम मार्गः, अत्र भवन्तः सिद्धान्तः इति अर्थं गृह्णन्ति। प्रसिद्धः सिद्धान्तः यः अस्ति तदतिक्रमिणः मार्गस्य तदतिक्रान्तः यः मार्गः अस्ति तत्र विद्यमानस्य समस्या तु वस्तुतः काव्यत्वं नास्ति एव। उदाहरणम् अहं पूर्वं न उक्तवान्, अत्र एकम् उदाहरणं दर्शयति। नाटकलक्षणं नाटकं कथं भवेत् इत्यादि उक्तं यदा वदति नाटके एकीदृशं वाक्यं प्रयोक्तव्यं तत्सर्वं वदति, किन्तु नाटके तावन्तः एव अंशाः न नृत्तं कालादिकमपि तत्र अस्ति। तत् तद् नाटकस्य एतद् गद्यपद्यं रूपमस्ति किल तद् अतिक्रान्तम् अन्यद् रूपं किञ्चित् अस्ति, तद् नाटकमिति वक्तुं न शक्यते। नृत्तमस्ति तालादिकमस्ति रागः अस्ति तदेव नाटकं न। किमर्थमित्युक्ते प्रसिद्धः यः सिद्धान्तः अस्ति इत्युक्ते गद्यपया प्रत्यमयात्मकरूपं यदस्ति तदतिरिच्य वर्तमानस्य तस्य नाटकत्वम् इति नास्ति। एवमेव काव्यत्वम् इति कुत्र वक्तुं शक्यते इति चेत् अलङ्कारत्वं गुणत्वं रीतित्वम् इत्यादिकं सर्वं विदत्ते तस्य सर्वस्य काव्यत्वम् इति वक्तुं शक्नुमः। तदतिरिक्तं किञ्चित् भवान् अस्ति इति वदति किल तस्य काव्यत्वं न भवति, काव्यत्वहानिः अस्ति। अतः प्रसिद्धप्रस्थानादिक्रमेण मार्गस्य काव्यत्वहानिः भवति इति कृत्वा काव्यत्वहानिः ध्वनिः नास्ति। एवं वदति चेत् तस्य काव्यत्वहानिः भवति, अतः ध्वनिः नास्ति इति पूर्वं भवती उक्तमासीत्। तदपि अयुक्तम्। किमर्थम् इति चेत् यतः लक्षणकृतामेव सः केवलं न प्रसिद्धः लक्ष्येतु परीक्षमाणे स एव सहृदय हृदयाह्लादकारि काव्यतत्त्वम्। भवन्तः तस्य लक्षणं करणीयम् इति वदन्ति, तत् अप्रसिद्धम् इति वदन्ति, इत्युक्ते काव्यतत्त्वम् इति भवन्तः ध्वनिः ध्वनिः इति यद् वदन्तः सन्ति तद् अप्रसिद्धम् इति भवन्तः वदन्ति खलु। केषां तद् अप्रसिद्धं लक्षणकृतामेव सः केवलं न प्रसिद्धः। भवन्तः इदानीं गुणस्य लक्षणम् अलङ्कारस्य लक्षणम् ऐतेः लक्षणं सर्वं कुर्वन्तः सन्ति किल, लक्षणकृतां भवतां तादृशं ध्वनिः ध्वनिकाव्यम् इति तु अप्रसिद्धं। लक्ष्ये तु परीक्ष्यमाणे किन्तु लक्ष्यभूतानि काव्यानि वयं परीक्षामहे परीक्षामहे यत्र तु तत्र तु ಸಧೃಮೇಕಾಧಿಕಾರಿ ಕಾವ್ಯತತ್ವಂ ತತ್ರ ಅಸ್ತ್ಯೇವ. ರಾಮಾಯಣಂ, ಮಹಾಭಾರತಂ, ಅಭಿಜ್ಞಾನ ಶಾಕುಂತಲಂ ಇತ್ಯಾದಿ ಉತ್ತಮಾನಿ ಕಾವ್ಯಾನಿ ಸಂತಿ. ತಾನಿ ಕರ್ಮಾಣಿ ತಸ್ಯ ಧ್ವನೇ ಲಕ್ಷ್ಯಭೂತಾನಿ ಸಂತಿ. ಅತಃ ಧ್ವನೇ ಲಕ್ಷ್ಯಭೂತಾನಿ ಕಾವ್ಯಾನಿ ಪ್ರಸಿದ್ಧಾನಿ ಸಂತಿ. ಭವಂತಃ ವದಂತೆ ಅಪ್ರಸಿದ್ಧಂ ಏಷಾಂ ಅಪ್ರಸಿದ್ಧಂ ಯೇ ರಕ್ಷಣಂ ಕುರ್ವಂತಿ ಲಕ್ಷಣಕೃತಾಂ ಭವತಾಂ ಕೇವಲಂ ಅಪ್ರಸಿದ್ಧಂ. ಲಕ್ಷ್ಯಭೂತಾನಾಂ ಗ್ರಂಥಾಸ್ತ ಸಂತಿ. ಭವಂತಃ ಅಪ್ರಸಿದ್ಧಂ ಅಪ್ರಸಿದ್ಧಂ ಇತಿ ವದಂತಿ ಚೇತ್ ಭವತಾಂ ಗಣೇ ಕೇವಲಂ ತದಪ್ರಸಿದ್ಧಂ. ತಾದೃಶ ಧ್ವನಿ ಸಹಿತಾನಿ ಕಾವ್ಯಾನಿ ಲಕ್ಷ್ಯಾನಿ ತೋ ಅನೇಕ ಅತಃ ಲಕ್ಷಣಕೃತಾಮೇವ ಸಹ ಕೇವಲಂ ನ ಪ್ರಸಿದ್ಧ. ಲಕ್ಷ್ಯೇ ಪರೀಕ್ಷಮಾಣೆ ಲಕ್ಷ್ಯಭೂತಾನಿ ಕಾವ್ಯಾನಿ ಯದಿ ಪರೀಕ್ಷಾಮಹೆ ತರ್ಹಿ ತು ಸಹ ಏವ ನಮ ಸಹ ಏವ ಧ್ವನಿ ಏವ ಸದೃತೇ ಹೃದಯಾಸ್ಲಾಲಕಾರಿ ಕಾವ್ಯತತ್ವಂ ಅಸ್ತೀತ್ಯಾಸ್ವಾಮಿ ಕಥೆ. ತತಃ ಅನ್ಯತ ಚಿತ್ರಮೇವ ಇತಿ ಅಗ್ರೇ ದರ್ಶಯಾಮಃ ರಕ್ಷಯಿಷ್ಯಾಮಃ. ಏತಾದೃಶ ಧ್ವನೇಃ ತತ್ವಂ ಧ್ವನಿತತ್ವಂ ಕಾವ್ಯರೂಪಂ ಕಾವ್ಯಾತ್ಮಭೂತಂ ಯದಸ್ತಿ ತದೇವ ಕಾವ್ಯಸ್ಯ ಆತ್ಮಭೂತಂ ಇತಿ ವಯಂ ವದಾಮಃ. ತದತಿರಿಕ್ತ ವಿದ್ಯುದಸ್ತೇತತ್ಸವಮಿ ಚಿತ್ರಂ ಚಿತ್ರಕಾವ್ಯಂ ನಮ್ಮ ಉತ್ಕೃಷ್ಟ ಕಾವ್ಯಂ ನಾ ಇತಿ ವಯಂ ಅಗ್ರೇ ದರ್ಶಯಿಷ್ಯಾಮಃ. ಕಾವ್ಯಕ್ಕೆ ಆತ್ಮಭೂತಂ ತತ್ವಂ ಯದಸ್ತಿ ಏತದೇವ ಉತ್ತಮ ಕಾವ್ಯಂ ಮಧ್ಯಮಂ ಕಾವ್ಯಂ ಅಧಮಂ ಕಾವ್ಯಂ ಚಿತ್ರಕಾವ್ಯಂ ಅಧಮಕಾವ್ಯಂ ಚಿತ್ರಕಾವ್ಯಂ ಅಗ್ರೆ ದರ್ಶಯಿಷ್ಯಾಮಿ. ಯದ್ಯುಕ್ತಂ ಅಭಾವವಾದ ಆಸೀತ್ ಕಿಲ ತಕ್ಕ ಏಕೈಕಸ್ಯ ಅದು ಉತ್ತರಂ ವದನ್. ಇದನ್ನು ಪುನಃ ಅಭಾವವಾದೆ ಅನ್ಯದ ವಾಕ್ಯ ಯದ್ಯುಕ್ತ ಕಾಮನೀಯಕಂ ಮನಸಿ ವರ್ತಮಾನಸ್ಯ ತಸ್ಯ ಉಕ್ತಾಲಂಕಾರಾದಿಷು ಏವ ಅಂತರ್ಭಾವಃ ಇತಿ. ಅನ್ಯದೇಕಂ ವಾಕ್ಯಂ ಭವತಃ ಉಕ್ತವಂತ. ಕಾಮನೀಯಕಂ ಅನಸಿ ವರ್ತಮಾನಸ್ಯ ಇತ್ಯುಕ್ತೆ ಕಾಮನೀಯತತ್ವಂ ವಹತಃ. ಕಾಮನೀಯತತ್ವಂ ಸೌಂದರ್ಯ, ಸೌಂದರ್ಯಂ ವಹತಃ, ಅತ್ಯಂತಂ ಸೌಂದರ್ಯಂ ವಹತಃ ತಸ್ಯ ಉಕ್ತೇ ಇವ ಅಲಂಕಾರಾದಿ ಅಂತರ್ಭಾವ. ಯಾರು ಭವಂತಃ ಧ್ವನಿ ಧ್ವನಿ ಇತಿ ಕಿಂಚಿತ್ ಉಕ್ತವಂತಃ ತತ್ರ ಸೌಂದರ್ಯಮಸ್ತಿ ಇತಿ ವಯಂ ಅಂಗೀಕುರ್ಮಃ ಚೇತ್ ತಾದೃಶ ಸೌಂದರ್ಯ ವಿಶಿಷ್ಟಸ್ಯ ತಸ್ಯ ಕುತ್ರ ಅಂತರ್ಭಾವಃ. ಅಲಂಕಾರೇಷು ರೀತಿಷು ಗುಣೇಷು ಯತ್ರ ಕುತ್ರಾಪಿ ಏಕತಾ ಅಂತರ್ಭಾವಃ ಭವೇದೇವ ಇತಿ ದ್ವಿತೀಯವಾದ ಅಸ್ತಿ. ಅತಃ ಕಾಮನೀಯಕಂ ಮನಸಿ ವರ್ತಮಾನಸ್ಯ ತಸ್ಯ ಅಲಂಕಾರಾದಿ ಅಂತರ್ಭಾವ ಯದುಕ್ತಮಸ್ತಿ ತದಪಿ ಅಸಮೀಚೀನಂ. ತದಪಿ ಅಸಮೀಚೀನಂ ಕಿಮರ್ಥಂ ಇತಿ ಚೇತ್ ವಾಚ್ಯವಾಚಕ ಮಾತ್ರ ಪ್ರಸ್ಥಾನೇ ವ್ಯಂಗ್ಯವ್ಯಂಗಕ ಸಮಾಶ್ರಯೇಣ ವ್ಯವಸ್ಥಿತಸ್ಯ ಧ್ವನೇ ಕಥಂ ಅಂತರ್ಭಾವ. ಸ್ವರೂಪೇ ಭೇದ ಅಸ್ತಿ ಸಮ್ಯಕ್ ಪಶ್ಯಂತು. ಈ ಅಲಂಕಾರ ಗುಣ ರೀತಿ ಇತ್ಯಾದಿಕಂ ಸರ್ವೇ ಅಸ್ತಿ ತತ್ಸರ್ವಮಿ ವಾಚ್ಯವಾಚಕ ಸಂಬಂಧವಸ್ತಿ. ವಾಚಕ ಶಬ್ದ ತಥಾ ಕಶ್ಚನ ವಾಚ್ಯ ಅರ್ಥ ತತ್ಸಂಬದ್ಧವೇ ವಾಚ್ಯವಾಚಕಂ ಆಚರಿತ್ಯ ಅಲಂಕಾರಾಃ ಗುಣಾಃ ಅರಿತಯ ಇತಿ. ಧ್ವನಿಸ್ತೋ ವ್ಯಂಗ್ಯವ್ಯಂಗಕ ಭಾವಂ ಆಚರಿಸ್ಯತಿ. ಧ್ವನಿಯ ಭವೇತ್ ತತ್ರ ವ್ಯಂಗ್ಯಕ ಶಬ್ದ ಭವೇತ್ ವ್ಯಂಗ್ಯಾರ್ಥ ಭವೇತ್. ಅತಃ ಅಲಂಕಾರ ಗುಣ ಇತ್ಯಾದಿ ಸರ್ವೇ ವಾಚ್ಯವಾಚಕ ಭಾವಮಾಸ್ತಿ ತಿಳಿಸಿ. ಧ್ವನಿ ವ್ಯಂಗ್ಯವ್ಯಂಗ್ಯ ಭಾವಮಾಸ್ತಿ ತಿಳಿಸಿ. ಅತಃ ಕಾಮಾಂಡ ವಾಚ್ಯವಾಚಕ ಮಾತ್ರ ಪ್ರಸ್ಥಾನೇ ಸಹ ಸಿದ್ಧಾಂತ ಕೀಲ ಅಲಂಕಾರ ಸಿದ್ಧಾಂತ ರೀತಿ ಸಿದ್ಧಾಂತ ಮನ ಸಿದ್ಧಾಂತ ಸರ್ವೋಪಿ ಸಿದ್ಧಾಂತ ವಾಚ್ಯವಾಚಕ ಮಾತ್ರ ತಿಳಿಸಿ. ತಸ್ಮಿನ್ ಪ್ರಸ್ಥಾನೇ ತಸ್ಮಿನ್ ಮಾರ್ಗೆ ವ್ಯಂಗ್ಯವ್ಯಂಜಕ ಸಮಾಶ್ರಯೇನ ವ್ಯವಸ್ಥಿತ ಧ್ವನಿಯೇ. ಧ್ವನಿಸು ವ್ಯಂಗ್ಯವ್ಯಂಜಕ ಪ್ರಸ್ಥಾನ ಮಾಶ್ರಿತ್ಯ ತಿಕ್ಕತಿ ಅಸ್ಯ ತತ್ರ ಅಂತರ್ಭಾವ ಕಥಂ ಧ್ವನಿ ಭಿನ್ನದೈವ ತದೇ ಭಿನ್ನಂ ಏತದೇ ಭಿನ್ನಸ್ತಿ ಅಸ್ಯ ಅಂತರ್ಭಾವ ಕಥಂ ಕಥಂ ಅಂತರ್ಭಾವ. ವಾಚ್ಯವಾಚಕ ಕಾಮತ್ವ ಹೇತವ ತಸ್ಯ ಅಂಗಭೂತಾಃ ಸತ್ತು ಅಂಗಿರೂಪ ಏವೈತಿ ಪ್ರತಿಪಾದಯಿಷ್ಯಮಾನ ಸ್ವಾ. ಅಗ್ರೆ अन्यदपि वयं दर्शयिष्यामः किमिति चेत् अन्धी भवति कश्चन अङ्गानि कानिचित् भवन्ति तर्हि विश्वासः अस्ति मम अङ्गानि सन्ति हस्तौ पादौ नेत्रे कर्णौ नासिका एतानि सर्वाणि मम अङ्गानि सन्ति अहं तु अङ्गी अस्मि अङ्गी नाम आत्मानि सङ्गण्य यस्य अङ्गानि सन्ति सा अङ्गी सिद्ध्यते अन्यानि सर्वाणि अङ्गानि अहं तु अङ्गी अस्मि रसगुणरीतयः सर्वेपि अङ्गाश्रिताः अङ्गानां सम्बद्धाः ये सर्वेपि ध्वनिस्तु अङ्गी विवर्तिष्यति वेदः गच्छति वा इदानीं रसः गुणः रीतिः अलङ्कारः इत्यादि सर्वेपि अङ्गसम्बद्धाः ध्वनिस्तु अङ्गीसम्बद्धः अस्ति तदेव वदति वाच्यवाचकतारूपहेतवः अलङ्कारादय सर्वेपि वाच्यवाचकस्य तारुत्वम् उत्पादयन्ति इति सर्वे अङ्गभूताः अङ्गीरूपस्थो सः नाम ध्वनिस्तु अङ्गीरूपः इति अग्रे प्रतिपादयिष्यमाणत्वा कोऽपि अहमग्रे तस्य प्रतिपादनं करिष्यामि अतः दर्शनम् एव अतः अङ्गी भिन्नः अङ्गानि भिन्नानि एतत् स्पष्टतया ज्ञायते अलङ्काराः इति सर्वेपि अङ्गरूपाः ध्वनिस्तु अङ्गीरूपः परिकरश्लोकस्य श्लोकस्य अत्र एतद्विषये परिकरश्लोकः परिकरः नाम अतिमुक्तमस्ति तत्सर्वं परिष्कृत्य श्लोकरूपेण कथयति सः परिकरश्लोकः अस्ति व्यङ्ग्यव्यञ्जकसम्बन्ध ध्वनि व्यङ्ग्यव्यञ्जकसम्बन्धनिबन्धनत्वं वाच्य ध्वनेः का निबन्धनता अस्ति इति चेत् व्यङ्ग्यव्यञ्जकसम्बन्धनिबन्धनता व्यङ्ग्यव्यञ्जकसम्बन्धेन एव ध्वनेः निबन्धनं क्रियते किञ्चित् काव्ये ध्वनिः निबध्यते कथं निबध्यते व्यङ्ग्यव्यञ्जकसम्बन्धेन अतः व्यङ्ग्यव्यञ्जकसम्बन्धनिबन्धनतया ध्वनेः किं निबन्धनं क्रियते वाच्यवाचकचारुत्वहेतु तस्य अन्तःपादिका कथं भवितुमर्हति अलङ्कारादय सर्वेपि वाच्यवाचकचारुत्वहेतव तेषु एतस्य अन्तर्भावः कथं भवितुमर्हति उक्तमेव श्लोकरूपाणि अग्रे ननु यत्र प्रतीयमाणस्य अर्थस्य वैषद्येन अप्रतीतिः सह नाम माभूध्वनेः विषयः इदानीं किञ्चिदिव चर्चायाः आरम्भं करोति अन्यत् कश्चन पूर्वपक्षे ध्वनिः इति किञ्चिदस्ति अस्ति इति भवन्तः वदन्ति किल अङ्गीकरोमि ध्वनिनामकं किञ्चिदस्ति इति अहम् अङ्गीकरोमि तथापि यत्र प्रतीयमानस्य अर्थस्य अनन्तरं द्वितीयः अर्थः प्रतीयते किल तस्य द्वितीयमानस्य प्रतीयमानस्य अर्थस्य वैषद्येन अप्रतीति विशदतया द्वितीयः अर्थः न प्रतीयते चेत् प्रथमः अर्थः अस्ति प्रतीयमानः अर्थः अस्ति प्रतीयमानः अर्थः यदि स्फुटतया न प्रतीयते चेत् तस्य सः नाम ध्वनेः विषयः मामु सः ध्वनिः इति न वदामः चिन्तयन्तु वाक्यः एकः अर्थः अस्ति द्वितीयः प्रतीयमानः अर्थः अस्ति द्वितीयमानः अर्थः यदि स्फुटतया प्रतिपाके ध्वनिः इति अङ्गीकुर्मः यदि प्रतीयमानः अर्थः वैषद्येन प्रतीतिः न भवति प्रतीतः न भवति तर्हि तं ध्वनिः इति न वदामः अस्तु वा इति वदन् यत्र प्रतीयमानस्य अर्थस्य वैषद्येन अप्रतीतिः तत्र प्रतीयमानवागमन्तः अर्थौ ಎಲ್ಲಿ ಸ್ಫುಟವಾಗಿ ಗೋಳಿ ಬರುವುದಿಲ್ಲವೋ ಅಲ್ಲಿಯೇ ಧ್ವನಿಯೇ ವಿಷಯ ಮಾಡು ಅದು ಧ್ವನಿ ಅಲ್ಲ ಅಂತ ಹೇಳೋಣ ಕುತ ಧ್ವನಿಯಲ್ಲಿ ಕುರುಹ ಸ್ಫುಟ ಪ್ರಯಾಣಿಸುತ್ತದೆ ತತ್ರ ಕೇವಲ ಧ್ವನಿಯಲ್ಲಿ ಕುರುಹ ప్రతీతిరస్తి యథా ద్వితీయ స్ఫుటతయా ప్రతీతిరస్తి తథముత్ర సమాసోక్తి ఆక్షేప అనుక్రమిత విశేషోక్తి పర్యాయోక్తి అపన్నుతి దీపక శంకర ఇత్యాది అలంకారేషు ఏతే అలంకారా సంతి ఏతేషు సర్వేషు అలంకారేషు ఏమం ప్రతీకరస్ ద్వితీయ స్ఫుటతయా ప్రతీయతే ఇది వదంతం దానికి ఉదాహరణ ఏది వచ్చే తత్ర ధ్వని అంతర్భావ భవిష్యతి ఇత్యాది నిరాకర్తం అతీతం తత్ర సర్వత్ర ధ్వని అలంకారే అంతర్గతం ఏకాది ఉదాహరణాన్ని యాని సంతి తత్ర సర్వత్ర భవంతః ధ్వని ఏం వదంతి సహ ధ్వని అలంకారే అంతర్గత భవతి ఇది ఏదస్య ధ్వని వయం అంగీకూర్మ సహ అలంకారే అంతర్గత ప్రతీతిరస్తి తా సమాసోక్తి ఆక్షేప అనుసన్నిత విశేషోక్తి పర్యాయోక్త అపగృతి దీపక సంఘరాది అలంకారా ధ్వని అంతర్భావ భవిష్యత్తు ఇత్యాది ఏం వదతి చేత తద్ నిరాకర్తుం తస్య నిరాకరణం కర్తుం ఏం అవీతం ఉపసర్జనీకృతత్వాద్ధనీకృతాత్మానీకరోతిదేయ శబ్ద అభిధేయాశ గుణీకృత శబ్దరం అభిజనతి సహ ధ్వనిరతి ధ్వని ఆత్మానం గుణీకృత్య అన్యం అర్థం ఎంత అభిజనతి సహే ధ్వని ఉదాహరణానంతరం స్పష్టం భవతి తేషు కథం తస్య అంతర్భావ జన్యప్రాధాన్యే ధ్వని కుతః ధ్వని నామ జన్యం యొక్క ప్రాధాన్యమస్తి తత్రైవ ధ్వని ఖలు నమాసోతి అలంకారే అంతర్భావ వదతి కిల తే అస్మాకం కథనం వ్యంగ్యర్థస్య ప్రాధాన్యం భవే సమాసోక్తి ఇత్యాది కథం ఇది చేత వయం వదాము ఇదే అనంతరం స్పష్టం భవతి నేత సమాసోత్యాదిషు ఇది అలంకారస్య సమర్థనం యహ కరోతి తస్య కథనం కిం సమాసోక్తి ఇత్యాది అలంకారేషు ద్వితీయ అర్థ స్ఫురతి ప్రదీయమాన అర్థ అసలు ప్రాధాన్యం ఇది వదంత అసలు ప్రాధాన్యం అస్తి చేతి వయం వదామ ధ్వనివాదిన తి తస్య అర్థస్య ప్రాధాన్యం న కథం ఇది చేతి సమాసోక్తం తావత్
ఉపోషాగేణిలోకారకం
సమాసోక్తి పరిపూర్తి ప్రస్తుతే అప్రస్తుతీ ఏకం ప్రకరణం వర్ణయన్ తదా తాని విశేషణాన్ని ప్రయోజనాన్ని కంటే తస్య సర్వస్య కారణం అన్యస్య అర్థస్యాపి ప్రతిబింబిస్తుంది సా సమాసోక్తి తత్ర వర్ణన కృతమాసీత్ అయమైంద్రీ ముఖం పశ్య రక్తత్వం ప్రతి చంద్రమా ఇది ఏకం వాక్యమాసీ పూర్వ దిశి ఇదంటే చంద్రోదయం అత పూర్వ దిశం పశ్యతు పూర్వ దిశాయా ముఖం పశ్యతు రక్త చంద్రమా రక్తవర్ణన చంద్రమా ఇదని ఐంద్రియా ముఖం చింబతి ఇది వాక్యం సత్య క్రమే రక్త చంద్రమా ఇది రక్త ఇది విశేషణమస్తి అత రక్త నామ అనురక్త ఇంకోకి అర్థ ऐन्द्रिय मुखम् उच्यते ऐन्द्रिय पूर्वादि स्त्रीलिङ्गशब्दः अस्ति अतः नायिकायाः मुखम् कश्चन नायकः चिन्वति इति द्वितीयः अर्थो चिन्वति सा समासोक्तिः इति समासोक्तेः उदाहरणम् समासोक्तिः परिस्फूर्तिः प्रस्तुते अप्रस्तुतसमये प्रस्तुतघटनायाः वर्णनसमये अप्रस्तुतस्य अर्थस्य प्रतीतिः अपि भवति चेत् समासोक्तिः उत्तमम् अत्र समासोक्ते उदाहरणं बहु समीचीनमेव तदपि तादृशमेव उपोषणेन विरोधकारकं तथा गृहीतं शशिना निशान्तं शशिना चन्द्रेण निशामुखं रात्र्याः मुखम् एषा कात्री निशामुखं तथा गृहीतमस्ति कीदृशेन शशिना इति चेत् उपोषरागेण यस्य मनसि रागः प्रवृद्धः उपोषरागः श्रीचन्द्रस्य शरीरे पूर्णचन्द्रः चन्द्रोदयस्य आरम्भकाले रागयुक्तः भवति तरुणवर्णयुक्तः भवति किल अतः उपोषरागेण नाम रागसहितेन चन्द्रेण शशिना रात्र्याः मुखं गृहीतमस्ति कीदृशं निशायाः मुखम् इति चेत् विलोलकारकम् आकाशे तत्र तत्र तारकाः विलोलाः दृश्यन्ते तत्र तत्र चञ्चलाः तारकाः दृश्यन्ते अतः विलोलकारकं यथा स्यात् तथा विलोलकारकं निशामुखं शशिना गृहीतमस्ति चन्द्रः निशायाः मुखम् इदानीं गृहीतवान् कथं गृहीतवान् अस्ति इति चेत् विलोलकारकं तारका सर्वाः विलोलतया तया दृश्यन्ते इदानीं तथा दृश्यन्ते अन्यच्च तथा गृहीतं येन समस्तं शिबिरां सुखं पुरः रागात् जलितमपि न लक्षितं तेन किं जातम् इति चेत् तस्याः पुरतः वर्तमानं निशायाः पुरतः वर्तमानं किमस्ति शिबिरां सुखं शिबिरम् अन्धकारः अन्धकाररूपं वस्त्रं यदस्ति तत् शिबिरां सुखं यदस्ति तत् पुरः विद्यमानं तत् गणितम् तद्वस्त्रमिदानीं गणितं पतितमस्ति तथापि तत् रागात् न लक्षितम् रागवशात् तया निशया एतदिदानीं न लक्षितम् चन्द्रः निशायार्थमुखं गृहीतवानस्ति तारकाणि विलोलानि सन्ति तथा सः गृहीतवान् अस्ति तेन एतस्य तिमिररूपम् अंशुकं वस्त्रमिदस्ति तद् गणितमपि तया नावृतम् इति प्रस्तुतस्य वर्णनं तदा तद्वदेव नायकनायिकयोः व्यवहारः क्रियते सः नायिकायाः मुखं गृह्णाति तत्र विलोलकारकं नाम तारकशब्दस्य नेत्रस्य श्वेतवर्णः भागः तस्य तारकाणि गच्छन्ति तत्र तारकाः यत्र विलोलाः भवन्ति तद् विलोलकारकं यथा स्यात् स्वच्छन्द्रेण नायकेन नायिकायाः मुखं गृहीतम् तस्याः पुरतः वस्त्रं पतितमपि तया नावगतम् इति द्वितीयस्य अर्थपूरणं भवति अतः चन्द्रोदयस्य वर्णनं यदा कृतं तदा अन्यनायिकनायिकयोः व्यवहारः इति द्वितीय अर्थस्य स्फुरणमपि जातमस्ति अतः समासस्य उदाहरणम् इति स्पष्टं अत्र इदानीं वदन्ति व्यङ्ग्येन अनुगतं वाच्यमेव प्राधान्येन प्रतीयते हा अत्र इदानीं पुनरेकः प्रश्नः भवति तर्हि भवन्तः इदानीं कम् अर्थं गृह्णीयुः तर्हि अत्र वाच्यार्थः कः व्यङ्ग्यार्थः कः व्यङ्ग्यार्थः कः इति भवन्तः गृह्णन्ति किन्तु तथा नास्ति अर्थद्वयं यदस्ति व्यवहारद्वयं यदवगम्यते त्वद्वयमपि वाच्यवाचकरूपेण इदानीं यदि सर्वे अलङ्कारात् सर्वेपि वाच्यवाचकसम्बन्धकारणात् ज्ञायन्ते अतः एते सर्वेपि विशेषणवशात् द्वितीयः यः यः अर्थः भवति सः अर्थोऽपि वाच्यार्थः एव तर्हि लिङ्गार्थः कः इति पृच्छति चेत् तत्र भवतां पुस्तके नास्ति अन्ते सः एकत्र लिखति अत्रापि कश्चन लिङ्गार्थः अस्ति सः लिङ्गार्थः नाम चंद्रमा के प्रकाश से रात्रि के जगमगा उठने पर कोई जान भी न सका कि यह दिशा गई। चंद्र क्या उदय यदा जाता था सदा यद उज्ज्वलता दिशा देना इदानी दिनम रात्रि परिणतम अभवत अत्र दिशाम आगतम तो जन ही न ज्ञातम दिनमस्ति दिनम समाप्तम अनंतरम रात्रि आरंभ अस्ति एवं परिवर्तन जातम अस्ति किल एक जन ही न ज्ञातम सह अर्थ नहीं अर्थ अतः चंद्रस्य यः व्यवहारः अस्ति नायकस्य यः व्यवहारः अस्ति तद् व्यवहारद्वयमपि वाच्यार्थः व्यङ्ग्यार्थस्य एतादृश किन्तु सः व्यङ्ग्यार्थः अत्र अप्रधानः अस्ति इत्यादौ व्यङ्ग्येन अनुगतं वाच्यमेव प्राधान्येन प्रतीयते। भवतां यत्र चमत्कारः कुत्र अनुभूयते एतदर्थद्वयमस्ति किल प्रथमार्थद्वयं तथैव खलु वर्णने वैशिष्ट्यमस्ति साक्षात् नायिकानायिकयोः व्यवहारः एव चन्द्रस्य निधायाश्च व्यवहारः अस्ति तत्रैव अस्माकम् आनन्दः अधिकः भवति आनन्ददिनं रात्रित्वेन परिणतं अभवत् तद् जनैः नामगतम् इति व्यङ्ग्यार्थः अस्ति किल तत्र चमत्कारकार्यत्वं नास्ति कुत्रचित् वाच्यार्थस्य प्राधान्यं भवति अतः अत्र व्यङ्ग्येन अनुगतं वाच्यमेव व्यङ्ग्यपृष्ठतः आगच्छति अग्रे वाच्यमेव अस्ति व्यङ्ग्येन अनुगतं वाच्यमेव प्राधान्येन क्रियते। समालोकितनायिका नायकव्यवहारयोः निशाचिशिरोरिव वाच्यार्थत्वात् तत्रैव निशाचिशिरोः व्यवहारः नायिकानायिकयोः व्यवहारः द्वयोरपि व्यवहारयोः वाक्यार्थत्वं वाक्यार्थत्वं वाच्यार्थं वाक्यार्थत्वमेव अतः व्यङ्ग्यार्थः अत्र अस्ति किन्तु सः एव अप्रमाणः जातः अस्ति तादृशमेव अन्यदेकम् इदानीम् एतत् कस्य उदाहरणम् इत्युक्तम् समापस्य उदाहरणम् आक्षेपस्य एकम् उदाहरणम् तत्पूर्वमस्ति आक्षेपेऽपि आक्षेपालङ्कारेऽपि व्यङ्ग्यविशेषाधिक्षेपिणः अपि वाच्यस्यैव चारुत्वम् प्राधान्येन वाच्यार्थम् आक्षेपो सुखि सामर्थ्यादेव जायते आक्षेपे नाम आक्षेप अलङ्कारे व्यङ्ग्यविशेष अधिक्षेपिणोऽपि वाच्यस्यैव वाच्यार्थः किं करोति इति चेत् अन्यम् अर्थम् एवम् अधिक्षिपति आक्षिपति बलात् आनयति व्यङ्ग्यविशेष अधिक्षेपिणः अपि व्यङ्ग्यविशेषार्थम् अन्यं लक्षणार्थम् आनयति चेदपि वाच्यस्यैव तदेव प्राधान्येन तिष्ठति प्राधान्येन वाक्यार्थे आक्षेपोऽपि सामर्थ्यादेव जायते तद् आक्षेपोऽपि सामर्थ्यात् आक्षेपरूपेण युज्यते तस्य सामर्थ्यात् जायते तत्र पुनः आक्षेपालङ्कारविषये भवद्भिः आक्षेपालङ्कारं पठिता आसीत् वा न वा न जानामि तस्य आक्षेपः किं किम् उक्त्वा तस्य आक्षेपः क्रियते सः आक्षेपः न अत्र अत्र आक्षेपो नाम कश्चन प्रसङ्गः वर्ण्यते सः प्रसङ्गः अन्यं प्रसङ्गम् आक्षिप्य आनयति इत्युक्ते समासोक्तिरिव किञ्चित् एतद् बलात् आनयति आक्षेपणम् इच्छति किल बलात् आनयनम् इति आक्षेपालङ्कारः इच्छति तत्र तथा तत्र शब्दोपारूढो विशेषाद्यानेच्छया प्रतिषेधरूपो यः आक्षेपः सः एव व्यङ्ग्यविशेषमाक्षिपन् मुख्यं काव्यशरीरम् यत्र शब्द उपारूढः विशेषाभिरानेच्छया प्रतिषेधरूपः यः आक्षेपः प्रतिषेधरूपः आक्षेपः इति वदति नाम व्यङ्ग्यविशेषम् आक्षिपति तदेव काव्यशरीरं भवति मुख्यम् चारुत्वोत्कर्षनिबन्धनानि वाच्यव्यङ्ग्ययोः प्राधान्यविवक्ष तर्हि किं प्रधानमिति निर्णयता इति चेत् चारुत्वोत्कर्षनिबन्धनं यत्र वाच्यवाचकयोः कारणतः चारुत्वम् अधिकमस्ति वा व्यङ्ग्यव्यञ्जनत्वयोः कारणतः चारुत्वम् अधिकमस्ति वा तदेव वस्तुतः निर्णयम् चारुत्वोत्कर्षकयोः सः एव इति उक्त्वा इदानीम् एतत् उदाहरणं दर्शयति
అనురాగవతీ
సంధ్యా
అనురాగవతీ సంధ్యా
వయం ప్రతిదినం సంధ్యాకాలం పశ్యామ దివసమతి పశ్యామ సాయం సంధ్యా యొక్క స్వీకరణ చేత సాయంకాలే సంధ్యాకాలం భవతి తస్య పురతః ఏవ పురతః నామ పృష్ఠతః ఇతి చింతయతి పురతః జీవనోపేక్షితః సంధ్యాస్తి దివసాస్తి సంధ్యా కథమస్తి అనురాగవతి సంధ్యా నామ అత్ర సమ్యక్ రాగః దృశ్యతే అనురాగవతి దివసః తస్య పురతః ఏవ సంధ్యా అనురాగవతి అస్తి సంధ్యా ఇతి చింతయ కర్తా పశ్యంతో సంధ్యాయా దినస్య సమానః భవతి వా సంధ్యాకాలే ఏ దినం ఆగచ్చతి వా దినమాగచ్చతి అత దైవదతిం పశ్యంతో సంధ్యాయా దినస్య సమానః ఎంతటి పార్టీ పార్టీయో భూమి ఇంత సమానమైన భవతి అహో దైవగతి చిత్ర తథా సమానమ ఇది ఏక అర్థం భవతి ఏక వచనం అన్యః వ్యంగ్యార్థ ఆక్షేప అలంకారం స్వీకురమచ్చేత ద్వితీయ అర్థ ఇతర అర్థ కథమస్తి చేత కాచిత్ నాయిక సా నాయిక నాయక విషయే అనురాగవీ కథ్యా వదతి తస్య విషయే మహాన్ అనురాగ దూరే కుత్రాపి నాస్తి తస్యాం పురతః ఏవ అస్తి తథాపి సమాగమం ఏవ న భవతి దైవగతి చిత్ర ద్వితీయ అర్థ అస్తి ఆక్షేపాలంకారం స్వీకురమా చేత ద్వితీయ అర్థ వ్యంగ్యార్థ ఇది భవతి సమాసోక్తం ప్రాయ అర్థద్వయం వాక్యార్థత్వేన శక్యతే అత్ర ద్వితీయ అర్థ వ్యంగ్యార్థ ఇది స్వీకురమా చేయదతి అథవా అన్యోపి కచన తేన కారణేన సమాగమనం భవతి అత్ర వదతి గృహజనాన్ అంగీకరించి గురుజనానాం ఉపస్థితి ఇత్యాది కారణత సమాగమనం భవతి తాదృశ కోపి అన్యనాథ తాదృశ వ్యంగ్యార్థ ప్రతీతమస్తి వాక్యస్యైవ చారుత్రం ఉత్కర్షం ఆవహతి ఇది తస్య ప్రాధాన్యం ఏమస్తి చేతి అత్ర అర్థద్వయమపి సమ్యక్ పరిశీలయతి కాచిత్ నాయిక నాయకే ప్రీతిమస్తి అస్తి సా పురతః ఏవ అస్తి తదాపి ద్వయోమపి సమాగమః న భవతి లోకే ప్రవర్తనైవ తదపేక్షయా సంధ్యాకాలం పశ్యంతు సంధ్యాకాల అనురాగవతి అస్తి దివస తస్యాం పురతనీయమేవ గచ్చతి తథాపి తయోః సమాగమః న భవతి ఇది కథం విదస్తి అత్రైవ వస్తుతా వర్ణనే ఇది వైశిష్ట్యం అత్రైవ సారత్వం సహితమస్తి అతర వ్యంగ్యప్రతీతమపి సత్యామపి వ్యంగ్యప్రతీతౌ వాక్యస్యైవ సారత్వం ఉత్కర్షవత్ ఇది కృత్వా తస్యైవ అలంకారా అలంకారికా సమానోక్తి ఇది వదంతి అన్యే కేచన అలంకారికా ఆక్షేపాలంకారది వదంతి సర్వం సమోచనకారాన్ని చర్చనం కృత్వా ఆక్షేపోపి భవితుమర్హతి సమానోచనోపి భవితుమర్హతి ఇది స్మరణే యః కోపి భూత్ అస్మాకం ద్వితీయ అర్థత్వ లభ్యతే తత్ స్వీకృమాణ ఇది సర్వం లిఖతి అత్ర අර කහා ලංකාරය කිච්චි දෙයක
ආක්ෂේප
වෙන්නේ මොකද කේතන ප්‍රමා මුතිමන්නේ දෙයක යථාදා දීපක අපපුත්‍යාරෝ යංගස්වේන උපමානාය උපමාය අපදීතාවකි සාරාණේ අවිරෝක්ෂිතස්වාද නතයා විපදේශහ සද්වනස්රාපි කච්චයම් දීපකාලකාර අපහනුති අලංකාර ඉත්‍යාදී උපමාය ප්‍රතිතිය අස්මාකම් බව යංගස්වේන උපමාය ප්‍රතිතිය බවයි දැන් දීපකාලකාර උත්තරන් දිවා වදන්ති වරණ්‍යා වරණ්‍යාන ධර්මයේ කෙන්දීපකම් නිසා මදේ වාදි ප්‍රකාශ මදේ වාදි කරනවා ප්‍රකාශේම හිපති සතර ඉහෙ දේව දරෝ මැදේ සමාන ධර්මයේ අන්වයෙන් උච්චේ බදන්දි වරණ්‍යා වරණ්‍යාන ධර්මයේ කෙන්දීපකම් සදා ඒක වරණ්‍යම් ඒක මොවරණ්‍යම් දයෝ මැදේ ඒකකින් තමයි ඇයිති සද්ධිපකාරණකා දීපකාලංකාරත් ක්‍රමණේන තයෝ මධ්‍ය ඖදෝන්‍යමස්ති උපම විච්ඡේදේ උදේ එන්න වෙන්‍යාස රූපේන තයෝ උපමාස්ති අපංකේ අත ආයත්‍යදීවෝ යංගත්‍ය උපමානාහ ප්‍රතිදී උපස්සේ තථාවිදස්ය ප්‍රාණාන්‍යේ විවක්ෂණ ප්‍රාණාන්‍යේ අවිවක්ෂිතස්වාස නතයා උපදේශහ යද්‍යපි වෙන්‍යාස ප්‍රතිදී තථාපත්‍ය ප්‍රාණාන්‍යනාති කාරණා සත්‍ර දීපකාලංකාර හේත්‍රාර්ථේ සත්‍ර අත්‍ර නිංගිතවස්ති යතවා කිවිදී වෙනිකාව්‍ය නිහිදවහන වෙනිපදේන අතවා වෙනිපදේන සත්‍ර අත්වහන නැතිදේ සත්‍ර අත්‍රාපි සිද්ධිස්වාග්‍රේ ඒකමද අනුත්ත නිස්සායාමුති විශේෂෝක්තෝ විශේෂෝක්ති කිවිදී ගච්ඡන අලංකාරයි ప్రాతకాల సాయంకాలం కచ్చన పతిక ప్రవాసార్థం గంటూ విద్యుత్ జన ప్రాతకాలే సర్వేకాదంతమాన ඉතින් මිත්‍රාණි ආගත්‍ය තම ආහූතවන්ත. ඒ උදිත උදිතත වෙච්චාමයි ආහූතවන්ත. ආහූතෝපි ආහූතේති. තේහි සහායෙහි සහායෙකෙන් දෙන්නේ සහාය. සහායෙහි ආහූතේති. ඕම සහා ආගච්ඡාමි ආමද්වස්සේ ඕම් ඕම් නමරිදර. ඕම් සිත්තං කෙලපි. ආහූතෝපි සහායෙහි ඕමි සිත්තං කෙලපි. විමුක්ත නිද්‍රෝපි නිද්‍රායන් දුර්වණස්වයිත්‍ය චේතනා නිද්‍රායහ යాగරණොත් යම් විමුක්ත නිද්‍රෝපි සහ ගන්තු මිත්‍රාස්වයිත්‍ය චේතකේ ගන්තු මනහ අපිකටිකහ සංකෝචන නිච්චයති ගන්තං ඉච්ඡති ඉච්ඡාති තථාපි සංකෝචන නිච්චයති උත්සාය දැක්ෂත්‍යව නවදාම ප්‍රාචිත ඉච්ඡාශක්තිය යති ක්‍රියාශක්ති රූපේ ප්‍රයෝගම් දත්තාස්ති అనంతరం ఆహూతోపి సహాయం ఓమి కృత్వా విముక్త నిద్రోపి గంతు మనా स्फटिकः सङ्कोचम् समयच्छति प्रतिलयति तर्हि अत्र इत्यादौ व्यङ्ग्यस्य प्रकरणसामर्थ्यात् प्रतीतिमात्रम् अत्रापि कश्चन व्यङ्ग्यार्थः प्रतीतः भवति सः कः व्यङ्ग्यार्थः इति चेत् प्रायः शैत्यादिकारणात् सः तथा आसीत् शैत्यमस्ति इति कारणात् अतः तस्य व्यङ्ग्यार्थस्य प्रतीतिः बहिर्भवति प्रतीतिमात्रमपि न तु तत् प्रतीति मिलित्वा काचित् चार्थं निष्पत्ति व्यङ्ग्यार्थः अहं शैत्यम् अभवत् अतः आचार्यम् उक्तवान् अस्ति इति वदति तत्र चारुत्वं किमपि अस्ति वा न तु तत् प्रतीतिनिमित्ता काचित् चारुत्वनिष्पत्तिः इति कृत्वा तस्य न प्राधान्यम् प्रतीतिः भवति चेदपि तस्य प्राधान्यं नास्ति एवमेव अग्रे पर्यायोक्तालङ्कारविषये अपि किञ्चित् वदति अनन्तरं पर्यायोक्तं कृत्वा उदाहरणं न दर्शयति अपभृतिगीतपयोः एकं कृत्वा किञ्चित् वाक्यार्थः अग्रिमपृच्छामि तर्हि शुक्रवासरः अस्ति श्वः मङ्गलवासरे
दिनाङ्कः एकादश
अग्रिमं
शुक्रवासरे